గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతే ధీనామభిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతదే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తను వాశంతమయాగిరిషంతా విచాకశే యామిషుం గిరిషంతహస్తే బిభర్ష్యస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశార్చా వదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్ అధ్యవోచదధి వక్తా ప్రథమో దైవ్యోభిషక్ అహేగుశ్చ సర్వాంజంభయన్ సర్వాస్య యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుస్సు మంగళః యే చేవాగుం రుద్రా అభితో దిక్షుశ్రుతా సహస్రశో వైశాగుం హేళ ఏమహే అసవ్యో వసర్పతి నీలగ్రీభో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృళయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అథో యే అస్య సత్వా నోహం తేభ్యో కరణమః ప్రముంచ ధన్వనస్త్వముభయోరాత్నియోర్జా యాశ్యతే హస్త ఇషవః పరాతా భగవో వపాప్ అవతత్య ధనుస్త్వగుం సహస్రాక్షశతే శుధే నిషీర్య శల్యానాముఖా శివో న సుమనాభవ విజ్యం ధనుక్కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిశం గతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ దృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథో య ఇషుధిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యు मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः. नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषेमते पथीनां पतये नमो नमो बभ्रुषाय व्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायात् क्रन्दयते पत्तीनां पतये नमो नम कृत्स्नवीताय धावते सत्त्वनां पतये नमः. नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमश्रिकाविभ्यो जिघागुंसद्भ्यो मुष्णतां पतये नमो नमोऽसि मद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जागृद्भ्यश्च वो नमो नम तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्य सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः. नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः सक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जष्टेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयुग्भ्यश्वनिभ्यश्च भो नमो नमः श्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च त्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीनुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रेयाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राज चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्त्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रचरणाय चोत्तरणाय च नमः तार्याय च लाद्याय च नमः शश्व्याय च फेन्याय च नमः स्विकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सर्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्काय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आनीवत्केभ्यः द्रापे अन्धसस्वते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चन ममत याते रुद्रशिवा तनु शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृधे क्षयद्वेराय नमसा विधेमते यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्रलीर्षः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीर्षः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आरात्ये गोघ्नहुत पोरुषग्ने क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यधा च न शर्म यच्च द्विबर्हाः सुहिश्रुतम् कर्त सदैयुमानम् मृगण्ण भीममुपहत्नुमुग्रम् मृगाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेद्वस्तोकायतनयाय मृडया मे दुष्टम शिवतम शिवो न सुमना भव परमे वृक्षायुधम् निधाय कृत्रिम्बसान आचर पिनाकम् बिभ्रदा गहे विकिरिद विलोहित नमस्ते अस्तु भगवः जास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुं सहस्रयो जने वधन्वानि तन्मसे अस्मिन् महत्यर्णवे एन्तरिक्षे भवा अधे नीलग्रीवाश्चिति कण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्रिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखा सत्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदा जब्द्युधः ये तीर्थानि प्रचरन्ति श्रीकावन्तो निषङ्गिणः य एतावन्तश्च भोजागुंशश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिविजेषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशो दिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनाद्वृत्योर्मुक्षीयमावृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशामृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याजस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रन्नमोभिर्देववसुरन्दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिमरुशनः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयश्च मे प्रियञ्च मेऽनुकामश्च मे कामश्च मे सोमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुक्त्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदा आधार पृथिवींद्या भूतेवां कस्मै देवाय हविषा विधेम य आत्मदा बलदायस्य विश्व उपासते प्रशिशं यस्य देवाः यस्य छायामृतं यस्य मृत्यु कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो बहित्वैक इद्रा जा जगतो बभूव यैषे अस्य द्विपदश्चतुष्पद कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येमा प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ये नद्यौ रुग्रा पृथिवी च दृढा ये न स्वस्तभितये नडाकः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम यं क्रन्दसि अवसातस्तभानि अभ्यैक्षे ताम्बरसारे जमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतीर्विश्ववायन्गर्भम् दधाना जनयन्तिरग्निम् ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यद्दक्षम् दधाना जनयन्तिर्यज्ञम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसीज्जनिताय पृथिव्यायो आदिवम् सत्यधर्मा जजाना यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्यामपतयोरयीणा शान्ति 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 ॐ यच्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽद्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय मेधा देवी जुषपाणा न आगा द्विश्वाची भद्रा सुमनस्य माना त्वया जुष्टानुदमाना दुरुक्ता बृहद्वदेम विदथे सुवीराः त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुतत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम्ब इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना बुभावात् ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु च यन्मनः दैवी मेधा सरस्वती सामा
मेधा सुरभिर्जुषता गुस्वाहा
आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीकाजुषन्ता मयि मेधा मयि प्रजा मयि अग्निस्तेजो दधातु मयि मेधा मयि प्रजा मयि इन्द्र इन्द्रियम् ददातु मयि मेधा मयि प्रजा मयि सूर्यो भ्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ शान्ति शान्ति शान्तिः मयि मेधा मेधा मयि मयि मेधा मयि मयि मेधा मयि मयि मेधा मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि अग्निरग्निर्मयि प्रजाम् प्रजाम् मयि अग्निः प्रजामिति प्राजाम् मयि अग्निरग्निर्मयि मयि अग्निस्तेजस्तेजोऽग्निर्मयि मयि अग्निस्तेजः अग्निस्तेजस्तेजोऽग्निरग्निस्तेजो दधातु तेजोऽग्निरग्निस्तेजो दधातु तेजो दधातु दधातु तेजस्तेजो दधातु मयि मयि दधातु तेजस्तेजो दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधाम् मेधाम् मयि दधातु दधातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयीन्द्र इन्द्रो मयि प्रजाम् प्रजाम् मयीन्द्रः प्रजामिति प्राजाम् मयीन्द्र इन्द्रो मयि मयीन्द्र इन्द्रियमिन्द्रियमिन्द्रो मयि मयीन्द्र इन्द्रियम् इन्द्र इन्द्रियमिन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्रियम् दधातु मयि मयि दधात्विन्द्रियमिन्द्रियम् दधातु मयि दधातु मयि मयि दधातु मयि मेधाम् मेधाम् मयि दधातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि सूर्यः सूर्यो मयि प्रजाम् प्रजाम् मयि सूर्यः प्रजामिति प्राजाम् मयि सूर्यः सूर्यो मयि मयि सूर्यो भ्राजो भ्राजः सूर्यो मयि मयि सूर्यो भ्राजः सूर्यो भ्राजो भ्राजः सूर्यः सूर्यो भ्राजो दधातु भ्राजः सूर्यः सूर्यो भ्राजो दधातु भ्राजो दधातु भ्राजो भ्राजो दधातु दधात्विति दधातु। ॐ शान्ति शान्ति शान्तिः। ॐ तच्छञ्जो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतै यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा। अतो जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येह भवात् पुनः ततो विश्वम् व्यक्रामत चाशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुनः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीराज्यम् ग्रीष्म इत्मः शरद्भविः सप्तास्यासन् परिधयः त्रिसप्त समिधः कृताः देवा यज्ञम् तन्वानाः अभग्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साद्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतम् पृषदाज्यम् पशुगुश्चागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का वूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रभावनतो जातः चक्षोर्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम्।
ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే దాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రతిశశ్చతస్రః తమేవం విద్వానమృత ఇహ భవతే నాన్యపంతా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానః సచంతే యత్ర పూర్వే సాద్యా సంతి దేవాః అభ్యః సంభూతః పృథివ్యైరసా చ విశ్వకర్మణః సమవర్తతాది తస్య త్వష్టా విదతద్రూపమేది తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరాః పరిజానంతి యోనిం మరీచీణాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే రీశతే లక్ష్మీశ్చ పత్న్యౌ అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాత్తం ఇష్టం మనిషానా అముం మనిషానా సర్వం మనిషానా తచ్చయ్యోరాణీమహే గాతయ్యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి శాంతి శాంతిః పురుషస్య విద్మసహస్రాక్షస్య మహాదేవస్య ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ తత్పురుషాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంతీ ప్రచోదయాత్ తత్పురుషాయ విద్మహే చక్రతుండాయ ధీమహి తన్నో నంది ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాసేనాయ ధీమహి తన్నః షణ్ముఖః ప్రచోదయాత్ తత్పురుషాయ విద్మహే సువర్ణపక్షాయ ధీమహి తన్నో గరుడ ప్రచోదయాత్ వేదాత్మనాయ విద్మహే హిరణ్యగర్భాయ ధీమహి తన్నో బ్రహ్మ ప్రచోదయాత్ నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ వజ్రనఖాయ విద్మహే తీక్ష్ణదగ్గుష్ట్రాయ ధీమహి తన్నో నారసిగుంహ ప్రచోదయాత్ భాస్కరాయ విద్మహే మహద్యుతికరాయ ధీమహి తన్నో ఆదిత్య ప్రచోదయాత్. వైశ్వానరాయ విద్మహే లాలీలాయ ధీమహి తన్నో అగ్నిః ప్రచోదయాత్. కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయాత్. ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్నః సర్వ ప్రచోదయాత్. స్వస్తి ప్రజాభ్యః పరిపాలయంతా జ్ఞాయేన మార్గేణ మహీం మహీషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.